नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्। विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विभवे रजागं द्विजो अस्कभागदुत्तरगं सधत्थं विचक्रमाणः श्रेधोरुगाजो विष्णोरराटमधि विष्णो पृष्ठमधि विष्णोश्चप्त्रेऽस्थो विष्णोत्यूरधि विष्णोर्ध्रुवमधि वैष्णवमधि विष्णवे त्वा तदस्य प्रियमभिपाथो अस्याम् नरो यत्र देवजवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सह प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षिगन्ति भुवनानि विश्वा परो मात्रजा तनुवावृधान न ते महित्वमन्वश्नुवन्ति उभे ते विद्वरजति पृथिव्या विष्णो देवत्वम् परमस्य विच्छे विचक्रमे पृथिवी मेष एताम् क्षेत्राज विष्णुर्मनुषे दशत्यन् ध्रुवासो अस्य कीरजो जनातः उरुक्षितिगुं सुजनिवाचकार त्रिर्देवः पृथिवी मेष एताम् विचक्रमे शतत्यसं महित्वा प्रविष्णुरस्तु तव सत्तबीजान् त्वेष गृह्यस्यस्थविरस्य नाम अतो देवा अबन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदं विष्णुर्विचक्रमे श्रेधानि दधे पदम् समूढमस्य पागुं सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णोः परमम् पदकम् तदा पश्यन्ति सूरजः दिवीव चक्षुरातम् तद्विप्रासो विपन्यपो जागृवाम् सत्समिन्धते विष्णोर्यत्परमम् पदम् पर्याप्या अनन्तराजाय सर्वस्तोमोऽसि रात्र उत्तममहर्भवति सर्वस्याप्यै सर्वस्य जित्यै सर्वमेव तेन आप्नोति सर्वम् जयति।